इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी अथ वार्ताः भारत बांग्लादेशयोः वाणिज्य दूत वार्तायाः चतुर्थचरणं ह्यः नवदिल्ल्यां समायोजितम् संयुक्त सचिवः डॉ अमनपुरी अत्रावसरे भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् तत्रैव बांग्लादेशस्य पक्षतः प्रतिनिधिमण्डलस्य नेतृत्वं दक्षिणैशिया महानिदेशकः विदेशमन्त्रालयस्य रॉकेबुल हकः विहितवान् उभौ पक्षौ वाणिज्य दूत सम्बद्ध पारगमनानुमति पत्र प्रत्यावर्तनादिषु विषयेषु पारस्परिक समन्वयं सहयोगं च सुदृढीकर्तुं व्यापकीं चर्चां समनुष्ठितवन्तौ एतौ पक्षौ नागरिकाणाम् आवागमन सौविध्यं सरलीकर्तुं द्विपक्षीय संशोधित यात्राव्यवस्थाम् इतोऽपि सबलीकर्तुं सहमतौ जातवन्तौ लोकसभा निर्वाचनस्य अन्तिमचरणस्य प्रचारस्य अद्य अन्तिमं दिनम् अस्ति एतस्मिन् चरणे शनिवासरे मतदानं सप्तराज्यानां केन्द्रशासित प्रदेशस्य चण्डीगढस्य च सप्तपञ्चाशदासनेभ्य समनुष्ठीयते अपि च एतस्मिन् क्रमे ओडिशाराज्ये द्विचत्वारिंशत् विधानसभासनेभ्य मतदानं भविष्यति आकाशवाण्याः वार्ताहरः संसूचितवान् यत् रक्षामन्त्री भाजपेति दलस्य च वरिष्ठनेता राजनाथसिंहः कुशीनगर रॉबर्ट्सगंज चन्दौली संसदीयक्षेत्रेभ्यः प्रचारं विधास्यति मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः अपि कुशीनगर सोनभद्र क्षेत्रयोः मार्गीय प्रदर्शनानि तत्रैव समाजवादी पार्टीति प्रमुखः अखिलेशयादवः महाराजगंज घोसी लोकसभाक्षेत्रयोः जनसमागमान् सम्बोधयिष्यति झारखण्डराज्ये विविध राजनैतिक दलानां नेतारः निज प्रत्याशिनां समर्थने मतदातृन् आक्रष्टुं सर्वविध प्रयासान् समाचरन्ति वरिष्ठ कांग्रेस दलीय नेता राहुल गांधी दुमका क्षेत्रे नैर्वाचनिक प्रचाराय तत्परो वर्तते झारखण्डे भाजपेति दल प्रमुखः बाबूलाल मरांडी गोड्डा साहिबगंज क्षेत्रयोः नैर्वाचनिक प्रचाराभियानानि करिष्यति मुख्यमंत्री चम्पई सोरेनः अपि गोड्डा दुमका साहिबगंज क्षेत्रेषु दलप्रत्याशिनां समर्थने जनसभानां नैकाः श्रृंखलाः सम्बोधयिष्यति रक्षानुसन्धान विकास संघठनेन ह्यः ओडिशायां भारतीय वायुसेनायाः SU-30 MK प्रथमम् इत्यस्मात् स्थानकात् वायुतः भूपृष्ठं प्रति प्रहारकस्य रुद्र एम द्वितीयं प्रक्षेपास्त्रस्य सफल परीक्षणं कृतम् स्वदेशे निर्मिते एतस्मिन् प्रक्षेपास्त्रे अनेकाः अत्याधुनिक प्रौद्योगिक्यः समाविष्टाः विद्यन्ते रक्षामन्त्री राजनाथसिंहः रुद्र एम द्वितीयम् इत्यस्य सफल परीक्षणे वायुसेना रक्षोद्योगेभ्यः शुभकामनाः प्रदत्तवान् थाईलैंड देशस्य बैंकॉक नगरे समायोज्यमाणे द्वितीये मुष्टामुष्टि विश्व ओलंपिक प्रवेश चक्रके द्वन्द्वे भारतस्य अंकुशिता बोरो इत्येषा षष्टि किलोग्राम भारमितवर्गस्य प्रागुपान्त्यचक्रम् सम्प्राप्तवती पुरुषवर्गेऽपि निशान्तदेवः एकसप्तति किलोग्राम मितभारवर्गे प्रागुपान्त्यचक्रे निजस्थानं सुनिश्चितवान् ऋतुविज्ञानविभागेन पश्चिमोत्तर मध्यभारते प्रवर्तमाने भीषणातापे अद्य आरभ्य शनैः शनैः न्यूनतायाः अनुमानः प्रकटितः भीषणातापस्य स्थितिः अद्य आवत् राज्येषु एवमेव प्रवर्तयिष्यति इति वार्ताः